इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। चतुर्षु राज्येषु एकस्मिन् केन्द्रशासित प्रदेशे च विधानसभा निर्वाचनार्थं प्रचारः चरमसीमायां वर्तते, यत्र मतदातृन् आकर्षयितुं शीर्षनेतारः प्रयत्नरताः सन्ति। उत्तरबंगालस्य कूचबिहार मण्डले ह्यः भाजपेति दलस्य वरिष्ठनेता प्रधानमन्त्री श्रीनरेन्द्रमोदी विशालजनसभां सम्बोधितवान्। श्रीमोदी पश्चिमबंगालराज्ये प्रचलितघटनानां उद्धरणं दत्त्वा सत्ताधारी तृणमूल कांग्रेस सर्वकारस्य आलोचनां कृतवान्।
मालदा में न्यायिक अधिकारियों को बंधक बनाकर रखा गया। सोचिए ये कैसी सरकार है, ये कैसी व्यवस्था है, जहां जज और संविधान की प्रक्रिया भी सुरक्षित नहीं है। बंगाल की आम जनता की सुरक्षा की उम्मीद इन लोगों से कैसे की जाए।
प्रधानमन्त्रिणा राज्यस्य जनाः आश्वसिताः यद् यदि जनाः भाजपा सर्वकारं सत्तायाम् आनयन्ति तर्हि सर्वकारः विकासं सुनिश्चित्य अवैधरूपेण निवसन्तः विदेशीजनान् बहिर्निष्कासयति। श्रीमोदिना उल्लेखितं यत् अग्रिम लोकसभा निर्वाचने महिला आरक्षण विधेयकस्य कार्यान्वयनम् अग्रे नेतुं सर्वकारेण अस्य मासस्य 16, 17, 18 दिनांकेषु संसदः विशेषसत्रम् आहूयते। एतन्मध्ये तृणमूल कांग्रेस दलस्य प्रमुखा राज्यस्य मुख्यमंत्री ममता बैनर्जी पश्चिमबंगालस्य विभिन्नेषु भागेषु जनसभां सम्बोधितवती। केरलम् राज्ये एर्णाकुलम् मण्डलस्य कुन्नातुनाड निर्वाचनक्षेत्रे भाजपादलस्य वरिष्ठनेता अमितशाहः जनसभां सम्बोधितवान्। श्रीशाहः अवदत् यत् आगामि केरलम् विधानसभानिर्वाचनम् केवलं सर्वकारस्य परिवर्तनार्थं न भवति, अपितु राज्यस्य भविष्यस्य उन्नयनार्थम् अपि भवति। असमराज्ये भाजपादलस्य वरिष्ठनेता अथ केन्द्रीयमन्त्री सर्वानन्दसोनोवालः धेमाजी इत्यत्र जनसभां सम्बोधितवान्। सः आरोपितवान् यत् पूर्व कांग्रेस सर्वकारेण राज्ये अवैध प्रवेशस्य भूमि अतिक्रमणस्य च अनुमतिः प्रदत्ता। भाजपादलस्य नेता असमस्य मुख्यमन्त्री हिमन्त विश्व शर्मा अपि बहुषु क्षेत्रेषु जनसभां सम्बोधितवान्। विदेशमन्त्री डॉ एस जयशंकरः स्वस्य ईरानी समकक्षेन अब्बास अराघचीत्यनेन सह ह्यः रात्रौ दूरभाषेण वार्तालापं कृतवान्। सामाजिक माध्यम सन्देशे डॉ जयशंकरः उक्तवान् यत् द्वावपि तौ पश्चिम एशिया संघर्षस्य वर्तमानस्थितेः विषये चर्चां कृतवन्तौ। डॉ जयशंकरः कतारस्य प्रधानमन्त्री विदेशमन्त्री शेख मोहम्मद बिन अब्दुल रहमान इत्यनेन सह अथ यूएई देशस्य उपप्रधानमन्त्री विदेशमन्त्री च शेख अब्दुल्ला बिन जायस अल नह्यान इत्यनेन सह दूरभाषेण वार्तालापं कृतवान्। पश्चिम एशिया संघर्षे प्रचलित विकासानां विषये चर्चाः केन्द्रीकृताः आसन्। अमेरिका राष्ट्रपतिः डोनाल्ड ट्रम्पः संचेतनां दत्तवान् यद्यदि ईरान देशः मंगलवासरस्य अन्तिमसमयसीमायां होर्मुज जलसन्धिं सर्वेषां नौकायानानां कृते पुनः न उद्घाटयति तर्हि अमेरिकी सैन्यं ईरान देशस्य विद्युत्संयन्त्रं सेतुञ्च ध्वंसीकरोति। अद्यतन जलप्रलयस्य भूकम्पस्य च कारणेन अफगानिस्तानदेशः कठिनपरिस्थितेः सम्मुखीकरणं कुर्वन्नस्तीति कारणेन भारतेन अफगानिस्तानदेशं प्रति मानवीय सहायता तथा आपदुद्धार सामग्र्यः प्रेषिताः। सामाजिकमाध्यमसन्देशे विदेशमन्त्रालयेन उक्तं यत् सहाय्य सामग्रीषु पाकशाला सामग्र्यः, स्वच्छता सामग्र्यः, शयनसामग्र्यः अन्ये च आवश्यकवस्तूनि सन्ति। आईपीएल क्रिकेट क्रीडायां रॉयल चैलेंजर्स बेंगलुरु दलेन चेन्नई सुपर किंग्स दलं 43 धावनांकैः पराजितम्। अद्य सायं 7:30 कोलकाता नाइट राइडर्स पंजाब किंग्स दलं सम्मुखीकरिष्यति। इति वार्ताः।